ओम नमो भगवते वासुदेवाय। अथ सप्तविंशोऽध्यायः। नारद उवाच, इत्थं पुरञ्जनं सद्भ्यग् वशमानीय विभ्रमैः। पुरञ्जनी महाराज रेमे रमयति पतिं, स राजा महिषीं राजन् सुस्नातां रुचिराननां कृतस्वश्चयनां तृप्तामभ्यनन्ददुपागतां। तयोपगूढः परिरब्धकन्धरो रहोऽनुमन्त्रैरपकृष्टचेतनः। न कालरम्भो बुबुधे दुरत्ययं दिवानिशेति प्रमदा परिग्रहः। शयान उन्नद्धमदो महामना महार्हतल्पे महिषी भुजोपधिः। तामेव वीरो मनुते परं यतस्तमोऽभिभूतो न निजं परं च यत्। तयैवं रममाणस्य कामकस्मनचेतसः क्षणार्धमिव राजेन्द्र व्यतिक्रान्तं नवं वयः। तस्यामजनयत्पुत्रान् पुरञ्जन्यां पुरञ्जनः शतान्येकादश विराडायुषोऽर्धमथात्यगात्। दुहित्रीर्दशोत्तरशतं पितृमातृयशस्करीः। शीलौदार्यगुणोपेताः पौरञ्जन्यः प्रजापते। सपञ्चालपतिः पुत्रान् पितृवंशविवर्धनान् दारैः संयोजयामास दुहित्री सदृशैर्वरैः। पुत्राणां चाभवन् पुत्रा एकैकस्य शतं शतं। यैर्वै पौरञ्जनो वंशः पञ्चालेषु समेधितः। तेषु तद्रिक्थहारेषु गृहकोशानुजीविषु निरूढेन ममत्वेन विषयेष्वन्वबध्यत। ईजे च क्रतुभिर्घोरैर्दीक्षितः पशुमारकैः। देवान् पितॄन् भूतपतीन् नानाकामो यथा भवान् युक्तेष्वेवं प्रमत्तस्य कुटुम्बासक्तचेतसः। आससादस वैकालो यो प्रियः प्रिययोषिताम् चण्डवेग इति ख्यातो गन्धर्वाधिपतिर्नृप। गन्धर्वास्तस्य बलिनः षष्ट्युत्तरशतत्रयम्। गन्धर्व्यस्तादृशीरस्य मैथुन्यश्च सितासिताः। परिवृत्त्या विलुम्पन्ति सर्वकामविनिर्मिताम् ते चण्डवेगानुचराः पुरञ्जनपुरं यदा हर्तुमारेभिरे तत्र प्रत्यषेधत् प्रजागरः। स सप्तपि शतैरेको विंशत्या च शतं समाः। पुरञ्जनपुराध्यक्षो गन्धर्वैर्युयुधे बली क्षीयमाणे स्वसम्बन्धे एकस्मिन् बहुभिर्युधा। चिन्तां परां जगामार्तः स राष्ट्रपुरबान्धवः। स एव पुर्यां मधुभुक् पञ्चालेषु स्वपार्षदैः उपनीतं बलिं गृह्णन् स्त्रीजितो नाविदद्भयम्। कालस्य दुहिता काचित् त्रिलोकीं वरमिच्छति। पर्यटन्ति न बर्हिस्मन् प्रत्यनन्दत कश्चन दौर्भाग्येनात्मनो लोके विष्णुता दुर्भगेति सा। या तुष्टा राजर्षयेतु वृतादात् पूरवे वरम् कदाचिदटमाना सा ब्रह्मलोकान् महीं गतम्। वव्रे बृहद्व्रतम् मां तु जानति काममोहिता। मयि संरभ्य विपुलमदाच्छापं सुदुस्सहम् स्थातुमरसि नैकत्र मदीयाच्या विमुखो मुने। ततो विहत सङ्कल्पा कन्यका यवनेश्वरम् मयोपदिष्टमासाद्य वव्रे नाम्ना भयं पतिम्। ऋषभं यवनानां त्वां वृणे वीरेप्सितं पतिम्। सङ्कल्पस्त्वयि भूतानां कृतः किल नरिष्यति। द्वाविमावनुशोचन्ति बालावसदवग्रहौ यल्लोकशास्त्रोपनतं नराति न तदिच्छति। अथो भजस्व मां भद्र भजन्तीं मे दयां कुरु। एतावान् पौरुषो धर्मो यदार्थाननुकम्पते। कालकन्योदितवचो निशम्य यवनेश्वरः चिकीर्षुर्देवगुह्यं सस्मितं तामभाषत। मया निरूपितस्तुभ्यं पतिरात्मसमाधिना नाभिनन्दति लोकोऽयं त्वामभद्राम सम्मताम्। त्वमव्यक्तगतिर्भुङ्क्ष्व लोकं कर्म विनिर्मितं। या हि मे प्रीतना युक्ता प्रजानाशं प्रणेष्यसि। प्रज्वारोऽयं मम भ्राता त्वं च मे भगिनी भव। चराम्युभाभ्यां लोकेऽस्मिन्नव्यक्तो भीमसैनिकः। ॐ स्वस्ति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां चतुर्थस्कन्धे पुरञ्जनोपाख्याने सप्तविंशोऽध्यायः। श्रीकृष्णार्पणमस्तु। नमोऽस्तु ते महायोगिन् प्रपन्नमनुषाधिमाम् यथा त्वच्चरणाम्भोजे रती स्यादनपायिनी।